વિપુલ દેસાઈ પ્રભુના ચરણોમાં અર્પણ કરે છે મંત્ર અને સ્તુતિ. હવે આપ સાંભળશો શ્રી દત્ત મહાપ્રભુની દત્તભાવની.
Yeah.
પ્રસ્તુત કરીએ છીએ અચ્યુતમ કેશવમ રામનારાયણમ.
અચ્યુતમ કેશવમ રામનારાયણમ કૃષ્ણ દામોદરમ વાસુદેવમ હરિમ શ્રીધરમ માધવમ ગોપિકાવલ્લભમ જાનકી નાયકમ રામચંદ્રમ ભજે. અચ્યુતમ કેશવમ સત્યભામા માધવમ માધવમ શ્રીધરમ રાધિકા રાધિતમ ઇન્દિરા મંદિરમ ચેતસા સુંદરમ દેવકી નંદનમ નંદજમ સંદજે. વિષ્ણવે જિષ્ણવે શંખિની ચક્રિણી રુક્મિણી રાગિણી યાચિતાયાત્મને કંસ વિધ્વંસિને વંશિને તે કૃષ્ણ ગોવિંદ હે રામ નારાયણ શ્રીપતે વાસુદેવાજિત શ્રીનિધે. અચ્યુતાનંદ હે માધવાદોક્ષજ દ્વારકા નાયક દ્રૌપદી રક્ષક શોભિત સીતયા શોભિતો દંડકારણ્ય ભૂ પુણ્ય
હવે આપ સાંભળશો શ્રી મહામૃત્યુંજય મંત્ર.
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीय मामृता.
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव
वर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीय मामृतात्.
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्
ત્ર્યંબક.
વિપુલ દેસાઈ પ્રભુના ચરણોમાં અર્પણ કરે છે મંત્ર અને સ્તુતિ. હવે પ્રસ્તુત કરીએ છીએ શ્રી નારાયણી સ્તુતિ.
મોસ્ત
હવે પ્રસ્તુત કરીએ છીએ શ્રી વિશ્વંભરી સ્તુતિ.
વિશ્વંભરી અખિલ વિશ્વતની જનેતા વિદ્યાધરી વદનમાં વસજો વિધાતા દુર્બુદ્ધિને દૂર કરી સદબુદ્ધિ આપો માં પાહી ઓ ભગવતી ભવ દુઃખ કાપો
માં પાહી ઓ ભગવતી ભવ દુઃખ કાપો
ભૂલો પડી ભવરણે ભટકો સૂઝે નહીં લગીર કોઈ દિશા જવાની ભાસે ભયંકર વળી મનના ઉતાપો માં પાહી ઓ ભગવતી ભવ દુઃખ કાપો
માં પાહી ઓ ભગવતી ભવ દુઃખ કાપો
આરંકને ઉગરવા નથી કોઈ આરો જન્માંધ છું જનની હું ગ્રહી બા
शीखे सुने रसिक छंद जय
वाघे विशेष बलियं बतडा प्रतापो मां पाहि ओ भगवती भव दुख कापो
मां पाहि ओ भगवती भव दुख कापो
श्री सद्गुरु शरण मा रहिने अजूछु रात्रि दिने भगवती तुझने भजूछु सद्भक्त सेवकतना परिताप चापो मां पाहि ओ भगवती भव दुख कापो
मां पाहि ओ भगवती भव दुख कापो
अंतर विषय अधिक उर्मिथता भवानी गाऊं स्तुति तव बले नमिने मृडानी संसार नाश कर रोग समूल कापो हे मात केशव कहे तव भक्ति आपो मां पाहि ओ भगवती भव दुख कापो
मां पाहि ओ भगवती भव दुख कापो
मां पाहि ओ भगवती भव दुख कापो
हवे आप सांभळशो श्री विष्णु सहस्त्रनाम स्तोत्र।
श्री विष्णु शतनाम स्तोत्रम् वासुदेवं ऋषिकेशं वामनं जलशायिनं जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजं वाराहं पुंडरीकाक्षं नृसिंहं नरकांतकं अव्यक्तं शाश्वतं विष्णुं अनंतमजमव्ययं नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनं गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरं वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकं चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमं वैकुंठं दुष्टदमनं भूगर्भं पीतवाससं त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदिकेश्वरं रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवं श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधं दामोदरं दमोपेतं केशवं केशिसूदनं वरेण्यं वरदं विष्णुं आनंदं वसुदेवजं हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमं सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतं हिरण्यतनुसंकाशं सूर्यायुतसमप्रभं मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणं ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितं सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखं ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुं योगीशं योगनिष्णातं योगिनं योगरूपिणं ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् इति नाम शतं दिव्यं वैष्णवं खलु पापहं व्यासेन कथितं पूर्वं सर्वपापप्रणाशनं यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् चान्द्रायणसहस्राणि कन्यादानशतानि च गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः।
हवे प्रस्तुत करिए छे एमएस सुबलक्ष्मी द्वारा श्री विष्णु सहस्त्र नाम।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये व्यासं वसिष्ठनप्तारं शक्तः स्तोत्रमकल्मषं पराशरात्मजं वन्दे शुकतातं तपोनिधिं व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः अविकाराय शुद्धाय नित्याय परमात्मने सदैकरूपरूपाय विष्णवे सर्वजिष्णवे यस्य स्मरणमात्रेण जन्म संसारबन्धनात् विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॐ नमो विष्णवे प्रभविष्णवे। श्रीवैशम्पाय न उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः युधिष्ठिरः शान्तनवम् पुनरेवाभ्यभाषत युधिष्ठिर उवाच किमेकम् दैवतम् लोके किम् वाप्येकम् परायणम् कुवन्तकङ्कमत्यन्तः प्राप्नुयुर्मानवा शुभम् को धर्मः सर्वधर्माणाम् भवतः परमो मतः किम् जतन्मुच्यते जन्तुर्जन्म संसारबन्धनात्। श्रीभीष्म उवाच जगत्प्रभुम् देवदेवमनन्तम् पुरुषोत्तमम् स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः तमेव चात्ययन्नित्यम् भक्त्या पुरुषमव्ययम् ध्यायम् स्तुवन्नमस्यम् च यजमानस्तमेव च अनादिनिधनम् विष्णुम् सर्वलोकमहेश्वरम् लोकाध्यक्षम् स्तुवन्नित्यम् सर्वदुःखातिगो भवेत् ब्रह्मण्यम् सर्वधर्मज्ञम् लोकानाम् कीर्तिवर्धनम् लोकनाथम् महद्भूतम् सर्वभूतभवोद्भवम् एष मे सर्वधर्माणाम् धर्मोऽधिकतमो मतः यद्भक्त्या पुण्डरीकाक्षम् स्तवैरच्चेन्नरः सदा परमम् यो महत्तेजः परमम् यो महत्तपः परमम् यो महद्ब्रह्म परमम् यः परायणम् पवित्राणाम् पवित्रम् यो मङ्गलानाम् च मङ्गलम् दैवतम् देवतानाम् च भूतानाम् यो व्ययक्तिरा यतः सर्वाणि भूतानि भवन्त्यादियुगागमे यस्मिंश्च प्रलयम् यान्ति पुनरेव युगक्षये तस्य लोकप्रधानस्य जगन्नाथस्य भूपते विष्णोर्नाम सहस्रम् मे शृणु पापभयापहम् यानि नामानि गौणानि विख्यातानि महात्मनः ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ऋषिर्नाम्नाम् सहस्रस्य वेदव्यासो महामुनिः छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः अमृताम् शुद्धवो बीजम् शक्तिर्देवकी नन्दनः त्रिसामाहृदयम् तस्य शान्त्यर्थे विनियुज्यते विष्णुम् जिष्णुम् महाविष्णुम् प्रभविष्णुम् महेश्वरम् अनेकरूपदैत्यान्तम् नमामि पुरुषोत्तमम् अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य श्रीवेदव्यासो भगवान् ऋषिः अनुष्टुप्छन्दः श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता अमृताम् शुद्धवो भानुरिति बीजम् देवकीनन्दनश्रेष्ठेति शक्तिः उद्भवः क्षोभणो देव इति परमो मन्त्रः शङ्खबृन्नन्दकी चक्रीति कीलकम् शार्ङ्गधन्वा गदाधर इत्यस्त्रम् रथाङ्गपाणिरक्षोभ्य इति नेत्रम् त्रिसामा सामरः सामेति कवचम् आनन्दम् परब्रह्मेति योनिः ऋतुः सुदर्शनकाल इति दिग्बन्धः श्रीविश्वरूप इति ध्यानम् श्रीमहाविष्णुप्रीत्यर्थे सहस्रनाम जपे विनियोगः ध्यानम् श्रीयोगन्मत्प्रदेशे शुचिमणि विलसत्सैकते मौक्तिकानाम् माला क्लुप्ता स्तनस्थ स्फटिकमणि निभैर्मौक्तिकैर्मण्डिताङ्गः शुभ्रैरभ्रैररभ्रैरुपरि विरचितैर्मुक्त पीयूषवर्षैः आनन्दीन पुनीयादरिनरिन गदा शङ्खपाणिर्मुकुन्दः भूपादौ यस्य नाभिर्वियदसुर निलश्चन्द्रसूर्योच्च नेत्रे कर्णावाशा शिरोद्यौर्मुखमपि दहनो यस्य वात्तेयमभ्निः अन्तस्थम् यस्य विश्वम् सुरनरखगोभोगि गन्धर्वदैत्यैः चित्तम् ब्रह्म यतेतम् त्रिभुवन वपुषम् विष्णुमीशम् नमामि ॐ नमो भगवते वासुदेवाय शान्ताकारम् भुजरशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगन सदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिधृध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् मेघश्यामम् पीतकौशेयवासम् श्रीवत्साङ्कम् कौतुभोद्भासिताङ्गम् पुण्योपेतम् पुण्डरीकायताक्षम् विष्णुम् वन्दे सर्वलोकैकनाथम् नमः समस्तभूतानामादिभूताय भूभृते अनेकरूपरूपाय विष्णवे प्रभ विष्णवे सशङ्खचक्रम् सकिरीटकुण्डलम् सपीतवस्त्रम् सरसीरुभेक्षणम् सहारवक्षस्थलशोभिकौस्तुभम् नमामि विष्णुम् शिरसा चतुर्भुजम् छायायाम् पारिजातस्य हेम सिंहासनोपरि आसीनमम्बुदश्याममायताक्षमलङ्कृतम् चन्द्राननम् चतुर्बाहुम् श्रीवत्साङ्कितवक्षसम् रुक्मिणी सत्यभामाभ्याम् सहितम् कृष्णमाश्रय विश्वम् विष्णुम् वशत्कारो भूतभव्य भवत्प्रभुः भूतभृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानाम् परमागतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च योगो योगविदाम् नेता प्रधानपुरुषेश्वरः नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः सर्वशर्वशिवस्थानुर्भूतादिर्निधिरव्ययः सम्भवो भावनो भक्ता प्रभव प्रभुरीश्वरः स्वयम्भूशम्भुरादित्य पुष्कराक्षो महस्वनः अनादिनिधनो धाता विधाता धातुरुत्तमः अप्रमेयो ऋषिकेश पद्मनाभोमर प्रभुः विश्वकर्मा मनुस्पष्टा स्थविष्ठस्थ विरोध्रुवः अग्राह्यश्चाश्वत कृष्णो लोहिताक्ष प्रदर्शनः प्रभूतस्त्रिकृद्धाम पवित्रम् मङ्गलम् परम् ईशान प्राणर प्राणो ज्येष्ठ श्रेष्ठ प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुराधर्ष कृतज्ञ कृतिरात्मवान् सुरेशः शरणम् शर्म विश्वरेता प्रजाभवः अधः संवत्सरो व्याल प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः कृशा कपिरमेयात्मा सर्वयोगविनिःसृतः वसुर्वसुमनः सत्यः समात्मा संमितः समः अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः रुद्रो बहुशिराबभ्रुर्विश्वयोनिश्चुतिश्रवाः अमृतश्चाश्वतस्थानुर्वरारोहो महातपाः सर्वगः सर्वविद्भानुर्विश्वत्सेनो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः चतुरात्मा चतुर्व्यूहश्चतुर्दंष्टश्चतुर्भुजः भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः अनभो विजयो जेता विश्वयोनिः पुनर्वसुः उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः वेद्यो वैद्यः सदा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देश्यवपुः श्रीमानमे आत्मा महादृधिः महेश्वासो मही भर्ता श्रीनिवासः सताङ्गतिः अनिरुद्धः सुरानन्दो गोविन्दो गोविदाम्पतिः मरीतिर्दम
शुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्याये सर्वविघ्नोपशान्तये शान्ताकारम् भुजगशय आधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिर्ध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम्
विपुल देसाई प्रभुना चरणों में अर्पण करे छे मंत्र अने स्तुति। हवे आप सांभळशो श्री नवग्रह शांति मंत्र।
आदिकाल से मानव स्वर्ग की कामना एवं आराधना करता आया है। मनुष्य को सदा से ये बोध तथा ज्ञान रहा है कि आकाशीय पिंड विशेषकर नवग्रह उसके जीवन को प्रभावित करने की शक्ति रखते हैं। आधुनिक विज्ञान ने भी ये स्वीकार किया है कि सूर्य चंद्र तथा ग्रहों में हमारी भावनाओं तथा हित अहित को प्रभावित करने की क्षमता होती है। सूर्य में नियंत्रित, सम्मोहित, आकर्षित और ऊर्जा प्रदान करने की शक्ति है। चंद्र में शरणागत, समर्पण, शांति तथा हर्षदायक शक्ति है। मंगल में कार्य, अभिप्रेरणा तथा परिवर्तनकारी शक्ति है। बुध में अभिव्यक्ति, आह्वान, मार्गदर्शन तथा शिक्षण की शक्ति है। बृहस्पति में विस्तार, बंधन मुक्ति, प्रस्फुरण तथा विकास शक्ति है। शुक्र में प्रेम, हर्ष, संबद्धता तथा पूर्णता की शक्ति है। शनि में विलंब, बाधा, नियंत्रण तथा विनाश करने की शक्ति है। राहु में धूमिल करने, छिपाने, बचाने और तैयार करने की शक्ति है। केतु में आहुति देने, विनाश एवं परिवर्तन करने की शक्ति है। वैदिक परंपरा में नवग्रह शांति तथा जीवन में सुख, समृद्धि व शांति लाने के अनेक उपाय बताए गए हैं। तथापि ज्यादातर स्थितियों में धार्मिक अनुष्ठानों का सहारा एवं ब्राह्मण पंडित की सेवाएं लेनी प्रयोजनीय हो जाती हैं। हमने इनमें से नवग्रह शांति के सबसे सहज तथा सुंदर उपाय को चुना है। समस्त नवग्रहों की शांति के लिए सुंदर एवं आत्मिक रचना में इनका 108 बार पाठ किया गया है। वस्तुतः नवग्रह शांति के माध्यम से हम सभी के जीवन में सुख, शांति, समृद्धि एवं सौहार्द लाने का ये एक विनम्र प्रयास है।
भूमि सुतो बुधश्च गुरु गुरुश्च शुक्रः शनिराहुकेतवः सर्वे ग्रहा शान्तिकरा भवन्तु सर्वे ग्रहा शान्तिकरा भवन्तु कारि भानुः शशि भूमिसुतो बुधश्च गुरुश्च शुक्रः शनिराहुकेतवः सर्वे ग्रहा शान्तिकरा भवन्तु सर्वे ग्रहा शान्तिकरा भवन्तु त्रिपुरान्तकारि भानुः शशि भूमिसुतो बुधश्च गुरुश्च शुक्रः शनिराहुकेतवः सर्वे ग्रहा शान्तिकरा भवन्तु सर्वे ग्रहा शान्तिकरा भवन्तु त्रिपुरान्तकारि भानुः शशि भूमिसुतो बुधश्च गुरुश्च शुक्रः शनिराहुकेतवः सर्वे ग्रहा शान्तिकरा भवन्तु सर्वे ग्रहा शान्तिकरा भवन्तु त्रिपुरान्तकारि भानुः शशि भूमिसुतो बुधश्च गुरुश्च शुक्रः शनिराहुकेतवः सर्वे ग्रहा शान्तिकरा भवन्तु सर्वे ग्रहा शान्तिकरा भवन्तु
शान्ति
कार्य भानुः शशि भूमिसुतो बुधश्च गुरुश्च शुक्रः शनि राहु केतवः सर्वे ग्रहा शान्तिकरा भवन्तु सर्वे ग्रहा शान्तिकरा भवन्तु त्रिपुरान्तकारि भानुः शशि भूमिसुतो बुधश्च गुरुश्च शुक्रः शनि राहु केतवः सर्वे ग्रहा शान्तिकरा भवन्तु सर्वे ग्रहा शान्तिकरा भवन्तु त्रिपुरान्तकारि भानुः शशि भूमिसुतो बुधश्च गुरुश्च शुक्रः शनि राहु केतवः सर्वे ग्रहा शान्तिकरा भवन्तु सर्वे ग्रहा शान्तिकरा भवन्तु